निच्छत्तम यदि पयदे निच्छादिक्षि करेदि अप्पानम् तन्ह अचेदनादि सैदि Thank you.